एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राजनीतिक दलानाम् मध्ये सुवर्ण तस्करी प्रकरणम् अनुसन्धातुम् उच्चस्तरीय अनुसन्धानायोगस्य संघटनार्थम् सहमतिर्धारणानन्तरम् ह्यः संसदः अवरोधः निराकृतो वर्तते। संसदि प्रतिनिधित्वम् कुर्वताम् प्रमुखदलानाम् मध्ये ह्यो द्विसूत्रीय सहमते धरणानन्तरम् आसन्नमासेन अवरुध्यमानः संसदः उपवेशः अचलत्। प्रमुख प्रतिपक्षिणा नेकपा एमाले दलेन श्रावणस्य द्वितीय दिवसे त्रिभुवनान्तर्राष्ट्रिय विमानस्थलात् बहिर्नयनस्य क्रमे तस्करस्य सुवर्णस्य निग्रहणस्य घटनायाः अनुसन्धानाय उच्चस्तरीयानुसन्धान समितेः संघटनमभियाच्य श्रावणस्य दशम दिवसतः सततम् संसदः उपवेशः अवरुध्यमानः आसीत्। प्रतिनिधि सभाया गतदिवसीयोपवेशे दलानां मध्ये धृताया सहमतेर विषयं ज्ञापयन् उपप्रधान रक्षामन्त्री पूर्णबहादुर खड्का सहमत्या देश जनतयोर्हिताय दलानां कृते सहकार्येण एकतया च अग्रे वर्धितुं द्वारम् अनावृतमिति अवोचत। उपप्रधानमन्त्री खड्का सुवर्ण तस्करस्य अनुसन्धानाय उच्चस्तरीयानुसन्धानायोगस्य संघटनाय दलानां मध्ये धृताया सहमत्या संसदं सर्वकारं च प्रति जनताया विश्वासः बध्यते। उपवेशे भाषमाणः सांसदाः देशस्य विभिन्नेषु भागेषु दूरापन्नाभ्याम् जलविप्लव भूस्खलनाभ्याम् प्रभावितानाम् नागरिकाणाम् उद्धार सहायता पुनस्थापनानाम् कृते तत्कालम् प्रयतितुम् सर्वकारस्य ध्यानम् आकर्षयन्। यान दुर्घटनासु प्रतिवर्षम् शतशो नेपालीनाम् जायमानम् मृत्युम् प्रति सर्वकारस्य ध्यानाकर्षणम् विदधानाः सांसदाः यान दुर्घटनानाम् न्यूनीकरणाय प्रभावकारी कार्यम् चालयितुमपि अभ्याचन्त। तत्पूर्वं संघीय संसदी प्रतिनिधित्वं कुर्वतां प्राप्त राष्ट्रिय मान्यतानां दलानां मध्ये सुवर्ण तस्करस्य सम्बन्धे अनुसन्धानाय आयोगं संघटयितुं सहमतिर्धृता आसीत्। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य उपविष्टेन उपवेशेन सुवर्ण तस्करस्य सम्बन्धे अनुसन्धानाय आस्मिनस्य पञ्चमे दिवसे आयोगं संघटयितुं सहमतिर्धृता वर्तते। आयोग संघटनस्य दिवसादेव कार्यं प्रारब्धं तस्य कार्यविधिं पश्चात् विमृष्टुं च निर्णीतमस्ति। सभायाः अपरोपवेशः अद्य दिवा एकवादने वसति। मन्त्रिपरिषदः उपवेशेन प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य संयुक्त राष्ट्रसंघस्य महासभायां सहभागितायै गमनस्य कार्यक्रमः स्वीकृतो वर्तते। प्रधानमन्त्रिणः प्रचण्डस्य राष्ट्रसंघस्य 79तम्यां महासभायां सहभागितायै अशिव भाद्रस्य अन्तिम सप्ताहे अमेरिकादेश गमनस्य कार्यक्रमः निर्धारितो वर्तते। उपवेशेन धूलीखेल चिकित्सालयस्य आपत्कालिक केन्द्र सुधार परियोजनायै जापान सर्वकारात् प्राप्ताम् अब्जत्रय उनत्रिंशतः कोटीनाम् षष्ठे लक्ष्याणाम् च जापान देशीय एन मुद्राणाम् अनुदान सहायताम् स्वीकर्तुम् निर्णीतमिति संचार सूचना प्रविधि मन्त्री सर्वकारस्य प्रवक्ता च रेखा शर्मा अज्ञापयत्। एवमेव मन्त्रिपरिषदः उपवेशेन एतत् विक्रमवर्षीयायाः न्यासपत्र निष्कासन सप्तम संशोधन नियमावल्याः संशोधनाय स्वीकृतिम् प्रदातुम् च निर्णीतमस्ति। मन्त्रिपरिषदः उपवेशेन गायकाय स्वर्गीय याया जेबी टुहरे इत्यस्मै जनगायकस्य उपाधिं प्रदातुं च निर्णीतमिति मन्त्री शर्मा अबोधयत्। चन्द्रमसा दक्षिण ध्रुवस्य निकटे भारतीय चन्द्रयान तृतीयस्य अवतरणमनु प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन भारतस्य प्रधानमन्त्रिणे नरेन्द्र मोदी इत्यभिधेयाय वर्धापनम् ज्ञापितम् वर्तते। चन्द्रमसा दक्षिण ध्रुवस्य निकटे चन्द्रयानम् अवतार्य भारतेन अन्तरिक्ष यात्रायाम् इतिहास निर्माणस्य अनुपदमेव प्रधानमन्त्री प्रचण्ड ट्विटर सञ्जालस्य माध्यमेन भारतस्य प्रधानमन्त्रिणे मोदी इत्यस्मै वर्धापनम् व्यक्तवान् वर्तते। भारतेन यान तृतीय नामकस्य यानस्य चन्द्रमसा दक्षिण ध्रुवे सफलतापूर्वकम् अवतारणस्य समाचारेण प्रफुल्लता अनुभूतेति उल्लेखन् प्रधानमन्त्री प्रचण्ड मित्रराष्ट्र भारतस्य अनेन साफल्येन अन्तरिक्षस्य अनुसन्धानेन सह नवीन सम्भावनाया अन्वेषणाय मानवजात्या अपरा महत्वपूर्ण उपलब्धि अधिगतेति प्रत्यपादयत्। ट्विटर सञ्जालस्य माध्यमेन प्रधानमन्त्री प्रचण्ड ऐतिहासिक कार्यसिद्धिम् समालक्ष्य समकक्षणे नरेन्द्र मोदी इत्यस्मै भारत सर्वकाराय भारतीय जनतायै च नेपाल सर्वकारस्य नेपाली जनतायाश्च पक्षतो वर्धापनम् ज्ञापयति। धादिङ जनपदस्य गजुरी ग्रामपालिकायाः द्वितीय वडा क्षेत्रस्य चालिसे वर्तिन छ राजस्थाने दुरापन्नायाम् बसयानस्य दुर्घटनायाम् मृतेषु अष्टसु जनेषु षड्जनाः सत्यापिताः वर्तन्ते। सत्यापितेषु जनेषु म्याग्दी जनपदस्य एक, पर्वत जनपदस्य त्रय, धादिङ जनपदस्य एक, कास्की जनपदस्य एकश्च सन्ति। मृतस्य जनद्वयस्य सत्यापनम् अवशिष्टम् अस्ति इति प्रहरिणा ज्ञापितम् वर्तते। काष्ठमण्डपतः पोखरा मार्गेण म्याग्दी जनपदस्य बेनीस्थानाय प्रस्थीयमानं बसयानम् अनियन्त्रितं सत् त्रिशूली नद्यां निपतितम् आसीत्। धादिङ जनपद प्रहरी कार्यालयस्य प्रहरी परीक्षकस्य गौतम मिश्रस्य अनुसारेण आहताः त्रयोदश जनाः उपचाराय काष्ठमण्डपम् आनीताः सन्ति। अत्रान्तरे प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन धादिङ जनपदस्य गजुरीस्थाने दुरापन्नाम् बसयानस्य दुर्घटनाम् प्रति दुःखम् व्यक्तम् वर्तते। दुर्घटनायाम् मृतान् यात्रिणः प्रति श्रद्धाञ्जलिम् अर्पयता प्रधानमन्त्रिणा प्रचण्डेन आहतानाम् यात्रिणाम् शीघ्र स्वास्थ्य लाभस्य कामना च विहिता वर्तते। कोशी प्रदेशस्य मुख्यमन्त्रिणा उद्धव थापा विधेयेन गृहीतं विश्वासस्य मतं असांविधानिकमस्तीति उल्लिखता सर्वोच्च न्यायालये आदेशावियाचन निवेदनं पञ्जीकारितं वर्तते। नेकपा एमाले दलस्य कोशी प्रदेश संसदीय दलस्य नेत्रा हिक्मत कुमार कार्किणा कोशी प्रदेश प्रमुखं परशुराम खापुम इत्यमुं मुख्यमन्त्रिणं उद्धव थापा विधं च विपक्षिणो निर्धार्य निवेदनमेतद् ह्य पञ्जीकारितं वर्तते। अस्य विवादस्य श्रवणम् अद्यतन दिवसाय निर्धारितमस्तीति सर्वोच्च न्यायालयस्य प्रवक्ता विमल पौडेलः अज्ञापयत्। आदेशावियाचन निवेदने अस्य भाद्रस्य चतुर्थे दिवसे मुख्यमन्त्रिणा थापा विधेयेन कोशी प्रदेश सभायां विश्वासस्य मतस्य ग्रहणकाले सभाध्यक्षस्य मतं संयोज्य विश्वासस्य मतं प्राप्तमस्तीति उद्घोषणम् असांविधानिकमस्तीति उक्तं वर्तते। सुदूर पश्चिम क्षेत्रे विशेष नियमेन निष्ठयाचाद्य गौरा पर्व समायोज्यमानं वर्तते। दुर्वाष्टमी अठ्यावली व्येति नाम्ना प्रथिते एतस्मिन् पर्वणि गौरीशंकरयो पूजाराधने विधीयेते। पर्वेदं चन्द्रमासानुसारेण भाद्रमासे समायोजनीयं सदपि एतस्मिन् पक्षे भाद्रशुक्लाष्टम्यः पूर्वमेव अगस्त्यर्षेः उदयस्य कारणेन श्रावणशुक्लाष्टम्यमेव समायोज्यमानं वर्तते। शुक्लपक्षे समायोज्यमानं गौरापर्व उज्याली गौरा, कृष्णपक्षे आयोज्यं गौरापर्व अन्ध्यारी गौरा चेति नाम्ना प्रसिद्धेस्त। सम गौरा पर्व उज्याली गौरा इत्युच्यते। अस्मिन् उपलक्ष्ये शुभकामनाम् सन्देशं ददत् राष्ट्रपति रामचन्द्र पौडेलः सुदूर पश्चिम क्षेत्रे विशेष रूपेण समायोज्यमानेन अनेन पर्वणा धार्मिक सांस्कृतिक भौगोलिक स्थान पारस्परिक सद्भावं च प्रगाढीकर्तुं महत्वपूर्ण भूमिका निरूढास्तीति उल्लिखति। इति समाचाराः।